ॐ सहनावगतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः। पुरुषसूक्तं पश्यामः। एतत् पुरुषसूक्तं दशममण्डले अस्ति। दशममण्डले सूक्तसङ्ख्या 90 10.90 तद्विषये उच्यते सहस्रशीर्षा इति षोडशर्चं सूक्तं। षोडशमन्त्राः अत्र सन्ति। नारायणः नाम ऋषिः। अस्य ऋषिः नारायणः इति। अनन्तरं छन्दः पञ्चदशमन्त्राणां प्रथमतः पञ्चदशपर्यन्तं विद्यमानानां मन्त्राणाम् अनुष्टुप् छन्दः। अन्तिमः मन्त्रः अथवा अन्तिमः ऋक् त्रिष्टुप् छन्दसि वर्तते इत्येव। अनन्तरं देवता का इति चेत् पुरुषः एव। अव्यक्तमहदादिविलक्षणः चेतनः यः पुरुषः पुरुषान्न परं किञ्चित् इत्यादिश्रुतिषु प्रसिद्धः सः देवता इति। नाम परमात्मा एव। परमात्मा एव अत्र पुरुषः, स एव किल अत्र देवता इति। एतत् सूक्तं ऋग्वेदे यथा अस्ति तथैव यजुर्वेदे अपि स्वीक्रियते। प्रायः तत्र तैत्तिरीय आरण्यके भवति इदं सूक्तं। पुनः तत्र तैत्तिरीय आरण्यके अपि अस्ति। अस्य सूक्तस्य कुत्र विनियोगः इति चेत् सामान्यतः गृहे पूजासु तस्य विनियोगः भवति। पुरुषमेधः इति अथवा ब्रह्ममेधः इति उच्यते। ब्रह्ममेधे अस्य विनियोगः। ब्रह्ममेधः इत्युक्ते कश्चित् अग्निहोत्र अनुष्ठाता अस्ति यः आरम्भतः अपि अग्निसम्बन्धं रक्षति, अग्निकार्यं करोति, अग्निहोत्रं करोति, आजीवनं वेदशास्त्रोक्तरीत्या। सः अग्नौ नानाविध आहुतिः समर्पयन् भवति आजीवनम्। अनन्तरं यदा सः म्रियते सः एव हविः भवति अग्नेः कृते। तस्य आहुतिः, सः एव अन्तिम आहुतिः तस्य अग्नेः कृते। तादृशः पुरुषः अनुष्ठातः तत्र ब्रह्मपदेन निर्दिश्यते। तादृशः तत्र हविरूपेण अग्नौ समर्प्यते। तस्मिन् इदं सूक्तं विनियुज्यते इत्यपि तत्र उच्यते। तत्र किं भवति, यजुर्वेदे इदं नारायणसूक्तम् इति उच्यते, यतोहि नारायणऋषिः दत्तवान् इति। अपरः कश्चन भागः अपि भवति, तद् उत्तरनारायणसूक्तम् इति। तद् 6 वा 7 वा मन्त्राः तत्र भवन्ति। तदपि संयुज्य दीर्घः भवति किञ्चित् यजुर्वेदे। तद् अत्र केवलं 16 मन्त्राः। एतावत् प्राथमिकम् एतद् विषये। इदानीं प्रविशामः। अनुष्टुप् मन्त्राः इति कारणेन वेगेन अग्रे सर्तुं शक्नुमः। सहस्रशीर्षा पुरुषस्सहस्राक्षस्सहस्रपात् स भूमिं विश्वतो वृत्त्वात्यतिष्ठद्दशाङ्गुलम् इति। पुरुषः सहस्रशीर्षा, पदद्वयं। पुरुषः सहस्रशीर्षा, एषः पुरुषः सहस्रशिरोयुक्तः। तस्य कति शिरांसि इति चेत् सहस्रम्। सहस्रशब्दः साक्षात् न स्वीकरणीयः। 1 followed by 3 zeros इति न स्वीकरणीयं। कः अर्थः? सहस्रशब्दस्य उपलक्षणत्वात् अनन्तैः शिरोभिः युक्तः इत्यर्थः। आयिरकणकान् मक्कळ्, 1000s of people इति वयं वदामः किल, एवमेव सहस्रशब्दः उपलक्षणात्मकः। सर्वाणि प्राणिनां शिरांसि यानि सन्ति तानि सर्वाणि एतस्यैव शिरांसि इति स्वीकरणीयं। सहस्रशीर्षा इत्युक्ते सर्वशीर्षा पुरुषः इत्यर्थः। सर्वेषां शिरांसि सन्ति तस्यैव शिरांसि इति। ಸಹಸ್ರಶೀರ್ಷಃ ಪುರುಷಃ ಏವಮೇವ ಸಹಸ್ರಾಕ್ಷಃ ಸಹಸ್ರಪಾದ ಏವಮೇವ ಸಹಸ್ರ ನೇತ್ರಾಣಿ ಸಹಸ್ರ ಪಾದಾನಿ ಪಾದಾಃ ಸಹಸ್ರಂ ಪಾದಾಃ ಏವಂ ಸಹಸ್ರಾಕ್ಷಃ ಸಹಸ್ರಪಾದ ಅನಂತರಂ ಏವಂ ಅಸ್ತಿ ಸಹ ಪುರುಷಃ ನಮ ಸರ್ವ ಪ್ರಾಣಿ ರೂಪೇಣ ಸಹ ಏವ ವರ್ತತೆ ಇತಿ ತದೇವ ತಾತ್ಪರ್ಯ ಸಹ ಸ ಭೂಮಿಂ ಸಹ ಕಿಂ ಕೃತವಾನ್ ಏತಾದೃಶಃ ಪುರುಷಃ ಕಿಂ ಕೃತವಾನ್ ಸಹ ಪುರುಷಃ ಭೂಮಿಂ ಬ್ರಹ್ಮಾಂಡ ಗೋಲ ರೂಪಾಂ ವಿಶ್ವತಃ ವೃತ್ವಾ ಸರ್ವತಃ ಪರಿವೇಷ್ಟ್ಯ ದಶಾಂಗುಲಂ ದಶಾಂಗುಲ ಪರಿಮಿತಂ ದೇಶಂ ಅತ್ಯತಿಷ್ಠತ್ ಅತಿಕ್ರಮ್ಯ ವ್ಯವಸ್ಥಿತಃ ಇತಿ ತನ್ನಾಮ ಕಃ ಅರ್ಥಃ ಸಹ ಅಸ್ಮಿನ್ ಲೋಕೇ ವಿದ್ಯಮಾನ ಸರ್ವ ಪ್ರಾಣಿಷು ಅಪಿ ವರ್ತತೆ ನ ಕೇವಲಂ ತಾವತ್ ತರ್ಹಿ ಓ ಏತಾವನೇವ ವಾ ಪರಮಾತ್ಮ ಇತಿ ಚೇತ್ ನ ಅತೋಪಿ ಅಧಿಕಃ ನಮ ಯಥಾ ಏತ ಏಷಾ ಪ್ರಪಂಚಾತ್ಮಕಃ ಪರಮಾತ್ಮ ಪ್ರಪಂಚಾತ್ ಅಧಿಕಃ ಅಪಿ ಸಹ ತರ್ಹಿ ಕಿಯದ್ ಅಧಿಕಃ ದಶ ಅಂಗುಲಂ ಅಂಗುಲಂ ಇತಿ ಚೇತ್ ಮೆಷರ್ ಆಫ್ ಅ ತಂಬ್ ದಶ ಅಂಗುಲಂ ಓ ತಾವದೇವ ಅಧಿಕಃ ವಾ ಇತಿ ಚೇತ್ ಯಥಾ ಸಹಸ್ರಂ ಇತ್ಯೇತದ್ ಉಪಲಕ್ಷಣಂ ಅನಂತ ಇತ್ಯಸ್ಯ ತತ್ರ ಅಧಿಕ ಇತಿ ಪದಂ ಕಿಂ ಉಪಲಕ್ಷಣಂ ನಮ ಎತಾವದೇವ ನ ತಥೋಪಿ ಅಧಿಕಃ ಸಹ ಇತಿ ಅತ್ಯತಿಷ್ಠತ್ ದಶಾಂಗುಲಂ ಬ್ರಹ್ಮಾಂಡಾದ್ ಬಹಿರಪಿ ಸರ್ವತಃ ವ್ಯಾಪ್ಯ ಅವಸ್ಥಿತಃ ಇತ್ಯರ್ಥಃ ಪರಮಾತ್ಮ ಸರ್ವವ್ಯಾಪಿ ಇತಿ ಚೇತ್ ಅತ್ರ ವಿದ್ಯಮಾನೇಷು ಏವ ಸರ್ವವ್ಯಾಪಿ ನ ಏತದ್ ಅತಿರಿಚ್ಯಾಪಿ ಸಹ ವರ್ತತೆ ಇತ್ಯೇತತ್ ತಾತ್ಪರ್ಯ ಪ್ರಥಮಃ ಮಂತ್ರ ದ್ವಿತೀಯ ಪುರುಷ ಏವೇದಂ ಸರ್ವಂ ಯದ್ಭೂತಂ ಯಚ್ಚ ಭವ್ಯಂ ಹುತಾಮೃತತ್ವಸ್ಯೇಷಾನೋ ಜದನ್ನೇನಾತಿರೋಹತಿ ಇತಿ ಪುರುಷ ಏವ ಇದಂ ಸರ್ವಂ ಸರಳಮಸ್ತಿ ಇದಂ ವರ್ತಮಾನಂ ಜಗತ್ ತತ್ಸರ್ವಂ ಪುರುಷಃ ಏವ ಇದಾನೀಂ ದೃಶ್ಯಮಾನಂ ಯಜ್ಜಗತ್ ಅಹಂ ಪಶ್ಯಾಮಿ ತತ್ಸರ್ವಮಪಿ ಪುರುಷಃ ಏವ ತರ್ಹಿ ವರ್ತಮಾನಮೇವ ವಾ ತರ್ಹಿ ಭೂತ ಭವಿಷ್ಯತೋಃ ವಿಷಯೇ ಕಾ ಕಥಾ ಯದ್ಭೂತಂ ಯಚ್ಚ ಭವ್ಯಂ ವರ್ತಮಾನ ಕಾಲೇ ಯಥಾ ಸರ್ವಮಪಿ ಪುರುಷಃ ಏವಂ ಭೂತಕಾಲೇ ಯದಾಸೀತ್ ತದಪಿ ಪುರುಷಃ ಏವ ಭವ್ಯಂ ಭವಿಷ್ಯತ್ ಕಾಲೇ ಯದಸ್ತಿ ತದಪಿ ಯದ್ ಭವಿಷ್ಯತಿ ತದಪಿ ಪುರುಷಃ ಏವ ಅತಃ ಯಥಾ ಅಸ್ಮಿನ್ ಕಲ್ಪೇ ವರ್ತಮಾನಾಃ ಪ್ರಾಣಿದೇಹಾಃ ಸರ್ವೇಪಿ ಪುರುಷಸ್ಯ ಅವಯವಾಃ ತಥಾ ಅತೀತ ಅನಾಗತ ಅತೀತ ಆಗಾಮಿನೋರಿ ಕಲ್ಪಯೋ ದ್ರಷ್ಟವ್ಯಂ ಇತ್ಯಭಿಪ್ರಾಯಃ ಇತಿ ಪುರುಷ ಏವೇದಂ ಸರ್ವಂ ಯದ್ಭೂತಂ ಯಚ್ಚ ಭವ್ಯಂ ಅನಂತರಂ ಉತ ಅಮೃತತ್ವಸ್ಯ ಈಶಾನಃ ಅಪಿ ಚ ಕಾಲವಿಷಯೇ ಉಕ್ತಂ ಭೂತ ವರ್ತಮಾನ ಭವಿಷ್ಯತ್ ಕಾಲ ಇತಿ ಏತಾದೃಶ ಕಾಲತ್ರಯಸ್ಯ ಯಸ್ಯ ಬಾಧಾ ನ ಭವತಿ ಸಹ ಅಮೃತಃ ಇತಿ ಉಚ್ಯತೆ ನ ಮ್ರಿಯತೆ ಇತಿ ಉಚ್ಯತೆ ಯಃ ಕೋಪಿ ಅಮೃತತ್ವಂ ವಾಂಚತಿ ತರ್ಹಿ ಏತಸ್ಯ ಸಮೀಪೆ ಏವ ಗಂತವ್ಯಂ ಯತೋ ಹಿ ಅಮೃತತ್ವಸ್ಯ ಈಶಾನಃ ಏಷಃ ಏವ ಅಮೃತತ್ವಸ್ಯ ದಾತ ಏಷಃ ಏವ ಅತಃ ಕಾಲತ್ರಯ ಅಬಾಧಿತಃ ಏಷಃ ಉತ ಆಲ್ಸೋ ಅಪಿ ಅಮೃತತ್ವಸ್ಯ ಈಶಾನಃ ಸ್ವಾಮಿ ಅತಃ ಏಷಃ ಕೇವಲಂ ಅಮೃತಃ ನ ಸಹ ಅಮೃತತ್ವಮಪಿ ದಾತುಂ ಶಕ್ನೋತಿ ಇತ್ಯಪಿ ಅಸ್ತಿ ಉತ ಅಮೃತತ್ವಸ್ಯ ಈಶಾನಃ ಅನಂತರಂ ಕಿಂತು ಸಹ ಲೋಕ ಅನುಗ್ರಹಾರ್ಥಂ ಕಿಂ ಕರೋತಿ ಸ್ವಾಮೇವ ಸ್ವಮೇವ ಲೋಕರೂಪೇಣ ಪ್ರಕಟಯತಿ ಯತ್ ಅನ್ನೇನ ಅತಿರೋಹತಿ ಏಷಃ ವಸ್ತುತಃ ಅಮೃತಃ ಅಮೃತತ್ವಸ್ಯ ಈಶಾನಃ ಅಪಿ ಕಿಂತು ಯತ್ ಯಸ್ಮಾತ್ ಕಾರಣಾತ್ ಅನ್ನೇನ ಪ್ರಾಣಿನಾಂ ಭೋಗ್ಯೇನ ಅನ್ನೇನ ನಿಮಿತ್ತಭೂತೇನ ಅತಿರೋಹತಿ ಸ್ವಕೀಯಾಂ ಕಾರಣಾವಸ್ಥಾಂ ಅತಿಕ್ರಮ್ಯ ಪರಿದೃಶ್ಯಮಾನಂ ಜಗದವಸ್ಥಾಂ ಪ್ರಾಪ್ನೋತಿ ತನ್ನಾಮ ಪ್ರಾಣಿನಾಂ ಕರ್ಮಫಲಭೋಗಾಯ ಜಗದವಸ್ಥಾ ಸ್ವೀಕಾರಾತ್ ನೇದಂ ತಸ್ಯ ವಸ್ತುತ್ವಂ ಇತ್ಯರ್ಥಃ ರೀಕಿಂ ಏಷಃ ಅಮೃತಃ ಅಮೃತತ್ವಸ್ಯ ಈಶಾನಃ ತಥಾಪಿ ಏಷಃ ಜಗದ್ರೂಪೇಣ ದೃಶ್ಯತೆ ಸರ್ವತ್ರ ಕಿಮರ್ಥಂ ದೃಶ್ಯತೆ यतोहि प्राणिनाम अनुग्रहाय प्राणिनः जगति जन्म प्राप्नुयुः स्वस्व कर्मफलम् अनुभूय मोक्षं प्राप्नुयुः इत्येतत् प्राणिनाम अनुग्रहार्थं सः स्वस्य चैतन्यात्मकरूपं त्यक्त्वा अथवा ततः अतिरिच्य कारणरूपं परित्यज्य सः कार्यरूपेण जगद्रूपेण परिणमते लोकानुग्रहाय अनेन परमात्मनः अनुग्राहकत्वं सूचितं भवति अनन्तरम् एतावानस्य महिमातोज्जायागश्च पूरुषः आदोऽस्य विश्वाभूतानि त्रिपादस्यामृतं दिवि एतावान् इति चेत् पूर्वत्र उक्तं किल जगति सर्वत्र वर्तते जगदतिरिच्यापि वर्तते स्पेशियल् स्प्रेड् उक्तम् अग्रिममन्त्रे भूत भव्य भवत् सर्वेषु अपि सः वर्तते अतः एतावान् इति तदेव उच्यते अतः कालेन अपरिच्छिन्नः देशेन अपरिच्छिन्नः एतावान् अस्य महिमा दिस् इस् द ग्रेट्नेस् आफ् पुरुष अस्य महिमा परन्तु अतो ज्यायान् स्पेशियली हि इस् नाट् लिमिटेड् temporarily also he is not limited and he is not limited by these two also ato jayadischa purusha he is beyond that also iti ataha mahimnah api even beyond this greatness jayan atishayena adhikah he is greater than that tasyeva vivaranam agre uchyate अग्रिमपाद एतावानस्य महिमा अतो ज्यायादिश्च पुरुषः कथम् पादोस्य विश्वाभूतानि अस्य विश्वाभूतानि पादः अस्य पुरुषस्य विश्वा नाम विश्वानि नाम सर्वाणि भूतानि कालत्रयवर्तीनि प्राणिजातानि पादः चतुर्थांशः आल् दीस् क्रियेटेड् बीयिङ्ग्स् are just one-fourth of him, spatially and temporally. Ubhayathapi. Kala trayavartini sarvani bhutani. Dvayamapi tatragatam. Ataha one-fourth. Tarihi kim padosya vishwa bhutani tripadasya amritam divi. Asya tripad amritam divi. One-fourth iti uktam. Tarihi three-fourths. त्रिपात् अस्य पुत्र अस्ति अमृतं दिवि इत्युक्ते विनाशरहितं सत् अमृतं तस्य त्रिपात् यदस्ति तद्विनाशरहितं सत् दिवि द्योतनात्मके स्वप्रकाशरूपे व्यवतिष्ठते इत्यर्थः तत् सत्यं ज्ञानमनन्तं ब्रह्म तादृशशुद्धस्वरूपेण वर्तते परन्तु यत् परिणमते जगद्रूपेण दट् इस् ओन्ली वन् फोर्थ् इति स्वीकरणीयम् अवगमनार्थं Vedanta-drishtya, that one-fourth also does not change. That also remains the same. Just a reflection. Iti tatha avagantaryam iti. Adeva vivaranam satyam jnanam anantam brahma. See, that which is anantam cannot be divided into one-fourth and three-fourths.
That's correct.
तर्हि किमर्थमिदम् इति चेत् अस्माकं बुद्ध्यारोहणाय किं तद् ब्रह्म कथमस्ति इति अवगमनाय इति आम ब्रह्मस्वरूपस्य अपेक्षया एतत् सर्वम् अल्पमेव तथापि अस्माकम् अवगमनाय इदं सर्वम् उच्यते कल्पनाय कश्चित् साधकः वस्तुतः पुरुषसूक्तं समग्रमपि ध्यानार्थमेव ध्यानं करणीयम् परब्रह्मणः स्वरूपं कीदृशम् इति ज्ञातुमेव येषां यतोहि अत्र सृष्टिक्रमः उच्यते तत्र कदाचित् कश्चित् क्रमः न अनुभूयेत किमर्थम् एतत् पूर्वं वक्तव्यमासीत् एतत् अनन्तरं वक्तव्यमासीत् कथम् एवं क्रमः परिवर्तितः चेत् कश्चित् ऋषिः स्वध्यानावस्थायां परमात्मनः नानाविधसृष्टिः जाता इति अनुभूतवान् स्वस्य अनुभवं सः प्रकटितवान् तद्वयम् अपि गृहीत्वा ध्यात्वा तेन मार्गेण परमात्मनः बोधं प्राप्नुमः. तदेव अस्य तात्पर्यम्. अन्तिममन्त्रे तदेव फलं कथ्यते. ध्याता किं कुर्यात् किं प्राप्नुयात् इति विषये अस्ति. अस्तु, चतुर्थः मन्त्रः. त्रिपादूर्ध्व उदयपुरुषः पादोऽस्येहाभवत् पुनः ततो विश्वं व्यक्रामत्साशनानशने अभि इति. यजुर्वेदे पश्यन्ति चेत् पादशः तस्य वाक्यानि खण्डितानि भवन्ति. त्रिपादूर्ध्व उदयपुरुषः पादोऽस्येहाभवात् पुनः ततो विश्वं व्यक्रामत् आशनानशने अभि इति पृथक् पृथक् भवति. अत्र तु पादद्वयं पादद्वयं योजयित्वा ऋग्वेदस्य क्रमः एषः. अस्तु, त्रिपादूर्ध्व उदयित् पुरुषः. त्रिपात् पुरुषः ऊर्ध्वम् उदयित्. कः अर्थः? इदानीं पुरुषः पादभागः त्रिपात् इति त्रिधा द्विधा विभक्तः अस्ति. त्रिपात् पुरुषः नाम यः संसार असंसक्तः असम्बद्धः तादृशः कीदृशः? संसाररहितः ब्रह्मस्वरूपः यः पुरुषः अस्ति. पुरुषस्य त्रिपात् भागः अस्ति सः ऊर्ध्वम् उदयित्. अस्मद् अज्ञानकार्यात् संसारात् बहिर्भूतः अत्रत्यैः गुणैः अस्पृष्टः उत्कर्षेण स्थितवान् इत्यस्ति. नाम इदं यज्जगत् दृश्यते तदपि परमात्मा एव, परन्तु अत्र सर्वविधरागद्वेष सर्वविषयाः सन्ति. तर्हि अयं पादभागः सर्वविधसांसारिकगुणैः सम्बद्धः इव दृश्यते, परन्तु यः त्रिपाद्भागः अस्ति सः क्लेशकर्मविपाक आशयैः अपरामृष्टः पुरुषविशेषः इति उच्यते किल, तस्य शुद्ध अंशस्य विवरणम् इति अवगन्तव्यं. सः ऊर्ध्वमेव वर्तते इति. पादोऽस्येहाभवात् पुनः इह अस्य पादः इह पुनः अभवत्. नाम सृष्टिः स्थितिः लयः, सृष्टिः स्थितिः लयः इति पुनः पुनः यच्चक्रं परिवर्तते तत् चक्रं केवलं पुरुषस्य पादभागस्यैव. त्रिपात् सर्वदापि शुद्धमेव. इह अस्य पादः इह पुनः अभवत्. पुनः पुनः सृष्टिसंहाराभ्यां पुनः पुनः आगच्छति इति. ततो विश्वं व्यक्रामत्. एवं सः पादस्य पादभागस्य विषये एव अग्रे विवरणं. ततः मायया मायायाम् आगत्य अनन्तरं विश्वं देवमनुष्यतिर्यगादिरूपेण विविधः सन् व्यक्रामत् व्याप्तवान् इति. यः पादभागः अस्ति सः एव पादभागः पुनः पुनः अभवत् इति उक्तं किल. तत् पुनः पुनः कथं भवति? पुनः नाम सृष्टिः स्थितिः लयः, सृष्टिः स्थितिः लयः इत्यत्र किं जायते? सः विश्वं व्यक्रामत्. तत्र सृष्टिस्थितिलयेषु सः नानारूपेण परिणमते. विश्वं विविधरूपेण सः व्यक्रामत् व्याप्तवान्. तर्हि किं व्याप्तवान्? साशनानशने अभि. नाम साशनं यस्य अशनम् अस्ति, यत् खादति यद् भक्षयति तद् साशनं. सेन्शियण्ट् बीयिङ्ग्स्, लिविङ्ग् बीयिङ्ग्स्. अनशनं यद् न भुङ्क्ते, नाम जडं वस्तु. अतः सो सः विश्वं व्यक्रामत्. तस्य पादभागः नानारूपेण परिणमते. कथं परिणमते? साशनरूपेण अनशनरूपेण जड चेतन वस्तुरूपेण सः परिणमते इति. साशनं भोजनादिव्यवहारोपेतं चेतनं प्राणिजातम्. अनशनं तद्रहितम् अचेतनं गिरिनद्यादिकं. तदुभयं यथा स्यात् तथा स्वयमेव विविधः भूत्वा व्याप्तवान् इत्यर्थः. तस्य इतः परं सृष्टिः एव. तस्य पादभागात् कथम् इदं दृश्यमानं जगत् परिणमते तस्यैव विवरणं भवति अग्रिमेषमध्ये. तस्मात् विराडजायत विराजो अधिपूरुषः स जातो अत्यरिच्यत अच्चाद्भूमिमथो पुरः इति. विश्वं व्यक्रामत् इति यदुक्तं तदेव अत्र प्रपञ्चते नानारूपेण कथं तस्य परिणामः जगद्रूपेण तस्मात् विराट् अजायत तस्मात् पुरुषात् तस्मात् परमात्मनः पादभागात् विराट् ब्रह्माण्डदेहः अजायत विराट् इति कश्चन पदार्थः उत्पन्नः ब्रह्मणः विराट् उत्पन्नः विराट् नाम कः ब्रह्माण्डमेव यस्य देहः तादृशः कश्चन चेतनः पदार्थः तस्य विराट् इति उच्यते इदानीं यदा वयं सर्वप्राणिनः सर्वं सृष्टं जगत् इत्यादि सर्वं वयं चिन्तयामः सृष्टानि सर्वाणि वस्तूनि ब्रह्माण्डः इति उच्यते तादृशः ब्रह्माण्डः एव यस्य देहः अस्ति तादृशः ब्रह्मणः पादभागान्तर्गतः यः चेतनः अस्ति सः विराट् शब्देन उच्यते सर्वमपि सृष्टं वस्तु यदि एकदेहत्वेन परिकल्प्यते तद्देहाभिमानी कश्चन देवः अस्ति चेत् सः एव विराट् स एव विराट् प्रथमं परमात्मनः उत्पन्नः इति अत्र उच्यते अस्मिन् सूक्ते तस्मात् विराट् अजायत जनिं प्राप्नोत् विराजो अधिपुरुषः इति विराजः ओके तत्र किञ्चित् परिष्करणीयं विराट् नाम कः ब्रह्माण्डदेहः एव तस्य देहस्य अभिमानी यः अस्ति सः पुरुषः इति उच्यते किञ्चित् लघुपरिष्कारः तत्र समग्र साशन अनशनरूप रूपं यत् सृष्टं जगत् तत् एकशरीरत्वेन परिगण्यते चेत् साशन अनशनरूपसमग्रं जगत् विराट् शब्देन उच्यते तस्मात् विराडजायत विराजो अधिपूरुषः विराजः अधि विराट् देहस्य उपरि तमेव देहम् अधिकरणं कृत्वा पुरुषः तद्देह अभिमानी कश्चित् पुमान् अजायत अवगतं किल अतः परमात्मा परमात्मनः ब्रह्माण्डदेहः अजायत तस्य ब्रह्माण्डदेहस्य कश्चित् अभिमानी पुरुषः उत्पन्नः सः तस्य विषये इदम् उक्तम् तत्र विवरणमुच्यते सोऽयं सर्ववेदान्तवेद्यः परमात्मा स्वयमेव स्वकीयया मायया विराट् देहं ब्रह्माण्डरूपं सृष्ट्वा तत्र जीवरूपेण प्रविश्य ब्रह्माण्डाभिमानी देवात्मा जीवः अभवत् ओ तर्हि अयं पुरुषः जीवः इति स्पष्टमेव व्याख्यातृभिः प्रपञ्चितम् अस्ति अनन्तरं स जातो अत्यरिच्यत सः जातः विराट् पुरुषः यः जातः अत्यरिच्यत अतिरिक्तः अभवत् विराट् व्यतिरिक्तः देवतिर्यं मनुष्यादिरूपः अभवत् नाम कश्चित् जीवः तत्र किम् उच्यते सृष्टिक्रमे हिरण्यगर्भः जातः इति उच्यते सः एव सूत्रात्मा इति उच्यते सूत्रात्मा इति चेत् सर्वेषां जीवात्मनां सूत्ररूपः एकः हिरण्यगर्भः इति वयं पुराणेषु वयं चतुर्मुखः ब्रह्म इति वदामः किल सः एव हिरण्यगर्भः इत्यपि शास्त्रे व्यवह्रियते फस्ट् हि वास् बान् सः एव हिरण्यगर्भः प्रथमं जातः हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् इति वेदे हिरण्यगर्भत्वेन यः व्यवह्रियते पुराणेषु सः एव चतुर्मुखब्रह्मत्वेन अग्रे तस्य विवरणं क्रियते साङ्ख्यशास्त्रे तदेव महत्तत्त्वम् इति उच्यते महत् हिरण्यगर्भः सूत्रात्मा चतुर्मुखब्रह्म इत्येतानि सर्वाण्यपि द फस्ट् कान्शियस् एवल्यूट् फ्रम् परमात्मा इत्येतत् सूचयति अतः तस्मात् विराडजायत जगद्वस्तु द मेटीरियल् आफ् द एर्थ् द क्रियेशन् एमर्ज् अण्ड् देन् तस्य उपरि कश्चन अभिमानी देवः पुरुषः जातः यः प्रायः अत्र हिरण्यगर्भं सूचयति सः हिरण्यगर्भः सः जातः हिरण्यगर्भः अत्यरिच्यत सः जीवाभिमानी सः अतिरिक्तः अभवत् नाम नानारूपेण सः स्वात्मानं विभक्तवान् नानाजीवरूपेण स्वात्मानं विभक्तवान् इति अत्यरिच्यत देवतिर्यं मनुष्यादिरूपः अभवत् सः एव हिरण्यगर्भः देवतारूपेण परिणतः तिर्यक् नाम प्राणिनां रूपेण परिणतः अनन्तरं मनुष्यादिरूपेण अभवत् पश्चात् भूमिमथो पुरः पश्चात् एवं प्राणिजीवसृष्ट्यनन्तरं किं जातं पश्चात् देवादिजीवभावादूर्ध्वं भूमिं ससर्ज भूमिं नाम एते जीवाः वासं कुर्युः किल तदर्थं भूमिः आवश्यकी स्थानम् आवश्यकं तत् ससर्ज अथो पुरः अनन्तरं भूमिसृष्टेरनन्तरं तेषां जीवानां पुरः ससर्ज पूर्यन्ते सप्तभिः धातुभिः इति पुरः शरीराणि तर्हि प्रथमं विराट् जातः विराजः तदभिमानी हिरण्यगर्भः जातः ततः सः एव हिरण्यगर्भः नानाजीवरूपेण विभक्तः जातः अनन्तरं तेषां जीवानां वासार्थं भूमिः देवलोकः नरकलोकः अनन्तरं मनुष्यलोकः इति नानालोकाः सृष्टाः अनन्तरं पुरः पुरः नाम तत्तत् शरीराणि अपि सृष्टानि अत्र पुरःशब्देन शरीरम् इत्यर्थः देवशरीरं मनुष्यशरीरं प्राणिशरीरम् इत्यादिकं सृष्टम् इत्यपि क्रमः अस्ति तत्र वयं विजुवलैस् कर्तुं शक्नुमः अतः एव मया उक्तम् एतद् ध्यानार्थमस्ति वयं ध्यातुं शक्नुमः ओ एवं सृष्टेः विभागः जातः इति मनः तत्र लीनं भवति तदर्थम् इदं सर्वम् उच्यते एषः पञ्चमः मन्त्रः षष्ठः यत्पुरुषेण हविषा देवा यज्ञमतन्वत सन्तो अस्यासीदाज्यं ग्रीष्म इद्म शरद्भविः इति सृष्टिप्रक्रिया एव अनुवर्तते काल्पनिकी काचित् ध्यानार्था सृष्टिप्रक्रिया उच्यते यत् यत्पुरुषेण हविषा देवा यज्ञमतन्वत किल मन्त्रस्य आरम्भः हा यत् यत् देवाः यज्ञमतन्वत किं कृतवन्तः एषः पुरुषः कश्चित् जातः किल तम् उपयुज्य देवाः यज्ञं कृतवन्तः इति किमर्थं यज्ञं कृतवन्तः सृष्टेः इतोपि अग्रे अनुवर्तनार्थं सृष्टिप्रक्रियायाः अनुवर्तनार्थं यज्ञं कृतवन्तः यत् पूर्वोक्तक्रमेण शरीरेषु उत्पन्नेषु सत्सु पश्चात् भूमिम् अथो पुरः इत्युक्तं शरीराणि सृष्टानि यत् यदा एतत् सर्वं जातं यत् शब्दस्य यदा इत्यर्थः यदा एतत् सर्वं जातं देवाः देवाः ये सृष्टिकर्तारः तद्दायित्ववन्तः उत्तरसृष्टिसिद्ध्यर्थं किं कृतवन्तः उत्तरसृष्टिसिद्ध्यर्थं किम् आवश्यकं रा मेटीरियल् आवश्यकं किम् इति चेत् पुरुषस्वरूपमेव मनसा हवीरूपेण सङ्कल्प्य पुरुषेण हविषा किं कृतवन्तः यज्ञम् अतन्वत यज्ञमेकं कृतवन्तः इति देवाः ये अग्रिमसृष्टिप्रक्रिया दायित्ववन्तः ते एतं पुरुषमेव स्वीकृत्य एक हवीरूपेण स्वीकृत्य आहुतिरूपेण स्वीकृत्य यज्ञं कञ्चन कृतवन्तः अस्य यज्ञस्य वसन्तः अस्य आसीत् आज्यम् अस्य यज्ञस्य किम् आज्यं नै क्लारिफैड् बटर् इति उच्यते सो किम् आज्यं वसन्तकालः एव आज्यमासीत् अनन्तरं तम् आज्यत्वेन सङ्कल्पितवन्तः ग्रीष्मः इद्मः सः एव पुरुषः पुनः तस्य ग्रीष्मकालं तस्य इद्म तस्य यज्ञस्य कृते इद्मत्वेन सङ्कल्पितवन्तः इद्मो नाम कः काष्ठविशेषः नाम यज्ञे वयं कदाचित् अस्मान् गृहे अपि तद् होमः क्रियते यदा तदा प्रथमं किं कुर्वन्ति होमकुण्डः भवति तस्य तत्परितः आरम्भे इद्मान् स्थापयन्ति किञ्चित् स्थूलकायान् काष्ठान् स्थापयन्ति अन्ते ते पुनः अग्नौ एव समर्पयन्ति इदानीं प्रायः दर्भः स्थाप्यते किल, दर्भः भवति तदुपरि कश्चन किञ्चित् स्थूलः खण्डः स्थाप्यते, काष्ठखण्डः समित् किं भवति इति चेत् कृशः भवति, तदपेक्षया इद्मः किञ्चित् स्थूलः भवति. किमर्थम् इद्मः स्थाप्यते इति चेत् यज्ञवेदिकायाः रक्षोभ्यः रक्षणार्थम् पूर्वस्यां दिशि न स्थापयन्ति. किमर्थम् इति चेत् तत्र आदित्यः एव अस्ति, सः एव रक्षणं करिष्यति रक्षोभ्यः. अन्य पूर्वामेकां दिशं विहाय अन्यत्र सर्वत्र इद्मं स्थापयन्ति, अन्ते तद् इद्ममपि समर्पयन्ति. अतः इद्मस्य समिधश्च भेदः अस्ति. समित् मन्त्रपुरस्सरं तत्र अर्प्यते, इद्मः रक्षणार्थं स्थाप्यते. अतः ग्रीष्मकालः उष्णः भवति किल, अतः रक्षणवेदिकारूपेण रक्षणरूपेण तत्र रक्षणकाष्ठमेव तदपि तमेव इद्मत्वेन सङ्कल्पितवन्तः. अनन्तरं शरत् शरत् कालः हविः अभवत् तस्मिन् यज्ञे. पुनः पुरोडाशादि हविष्ट्वेन, पुरोडाशः इति चेत् तत्र रैस् फ्लोर् भवति किल, तेन यद् निर्मीयते तत् हविः इत्येव. एतादृशं तस्मिन् यज्ञे वस्तुतः सर्वमपि पुरुषः एव हविः, तथापि तत्रापि हविर्विशेषः हविः इद्मः. अनन्तरम् आज्यम् इत्येवं पृथक्त्वेन तस्यैव पुरुषस्य नानारूपेण परिकल्पनं कृतवन्तः. पूर्वं पुरुषस्य हविस्सामान्यरूपेण सङ्कल्पः, अनन्तरं वसन्तादीनाम् आज्यादिविशेषरूपत्वेन सङ्कल्पः इति द्रष्टव्यं. देवाः सङ्कल्पमयं कञ्चन यज्ञं कृतवन्तः इति. अतः सङ्कल्पेन वसन्तकालस्य, ग्रीष्मकालस्य, शरत्कालस्य च सृष्टिः जाता इति स्वीकरणीयम्. तं यज्ञं बर्हिषि प्रौक्षन्न पुरुषं जातमग्रतः तेन देवा अयजन्त साध्यार्षयश्च ये. पूर्वं किमुक्तं, शरीरपर्यन्तं जीवानां शरीरपर्यन्तं सृष्टम्, अनन्तरं जीवानां यथा सौख्यं स्यात् तथा नानाकालाः ऋतुविभागाः कृताः तेषां सौकर्यार्थम्. ओ एकैकस्मिन् काले एकैकम् अनुभवं प्राप्नुयुः जीवाः इति ऋतवः तत्र निर्दिष्टाः. अनन्तरम् अग्रे किं जातम् इति चेत् यज्ञं तं बर्हिषि प्रौक्षन् किं कृतवन्तः. यज्ञशब्देन अत्र यज्ञसाधनं तं पुरुषमेव, यज्ञशब्देन अत्र पुरुषः एव उच्यते. यज्ञस्य साधनभूतः यः पुरुषः सः एव यज्ञशब्देन अत्र उच्यते. वैकुण्ठः इति पदप्रयोगः क्रियते. वैकुण्ठशब्दस्य कः अर्थः? न, वैकुण्ठम् इति चेत् किं सामान्यतः? विष्णोः गृहम् इति उच्यते. विष्णुः अपि वैकुण्ठः एव. यथा यः यत्र वसति सः तन्नाम्नैव अभिधीयते. विष्णुः वैकुण्ठः इति पदेनापि उच्यते. तस्य वस्तुतः स्थानं वैकुण्ठम् इति प्रयोगः अस्ति, परन्तु सः अपि वैकुण्ठः इति यथा प्रयोगः, एवमेव यज्ञसाधनभूतः एषः यज्ञत्वेनैव व्यवह्रियते. साधने एव साध्यनिर्देशः, साधनस्यैव साध्यत्वेन निर्देशः. यज्ञं यज्ञसाधनभूतं तं पुरुषं बर्हिषि प्रौक्षन्. बर्हिषि यज्ञे बर्हिश्शब्दस्य, अत्र बर्हिश्शब्दस्य नानार्थाः सन्ति. अत्र बर्हिश्शब्दे शब्दस्य मानसः यज्ञः इत्यर्थः. के एतं मानसिकं यज्ञं कुर्वन्ति, के कुर्वन्तस्सन्ति? देवाः. देवाः एतं मानसिकं यज्ञं कुर्वन्तस्सन्ति. तस्मिन् मानसिके अस्मिन् यज्ञे प्रोक्षणं कृतवन्तः तस्य पुरुषस्य उपरि. प्रोक्षणं किमर्थं क्रियते, कस्य क्रियते इति चेत् पशोः एव प्रोक्षणं क्रियते. प्रोक्षणं कृत्वा तदेवं यदा शिरः करोति तदा कथ्यते किल. एवं यूपे बद्धं पुरुषं, यूपः नाम यत्र पशुः बध्यते, हूयमानः पशुः यत्र बध्यते तत् स्थानं यूपः, यूपस्तम्भः इति उच्यते. तत्र बद्धः पुरुषः, तस्य प्रोक्षणं कृतवन्तः, नाम अग्रे समर्पणाय इति. तं यज्ञं बर्हिषि प्रोक्षन् पुरुषं, तस्य प्रोक्षणं कृतवन्तः देवाः. कीदृशः एषः पुरुषः? अग्रतः जातं पुरुषम्. एषः सृष्टेः पूर्वतः यः वर्तते पुरुषः सः एव अत्र पशुः, तस्यैव उपरि प्रोक्षणं कृतवन्तः इति. अतः सः पूर्वतः अपि अस्ति, इदानीं हिरण्यगर्भरूपेण सः पुरुषत्वेन सः उपलक्ष्यते तावदेव इति. अतः जातम् अग्रतः आरम्भतः अपि विद्यमानं पुरुषं ते प्रोक्षितवन्तः मानसिके यज्ञे इति. अनन्तरं तेन देवा अयजन्त, सः पशुः किल, अतः तेन एते देवाः यागं कृतवन्तः. तेन पुरुषरूपेण पशुना देवाः अयजन्त मानसयागं निष्पादितवन्तः इत्यर्थः भवतु. एतावत्पर्यन्तं देवाः सङ्कल्पितवन्तः, देवाः प्रोक्षितवन्तः इत्यादि उक्तं. के ते देवाः इति प्रश्नः भवति. साध्याः देवाः, साध्याः नाम सृष्टिसाधनयोग्याः, प्रजापतिप्रभृतयः इति. नाम ये सृष्टिकार्यं साधयितुं नियुक्ताः सन्ति, प्रजापतिः इत्येतादृशाः ये सन्ति, ते एव अत्र देवशब्देन निर्दिश्यन्ते. न केवलं तावत्, केवलं देवैः किमपि कर्तुं न शक्यते, ऋषयश्च ये ऋषयः अपि तत्र अपेक्षिताः. केवलं देवाः एकं मानसिकं यज्ञं सृष्टि आरम्भकालेन कृतवन्तः, ऋषयः अपि कृतवन्तः, मन्त्रद्रष्टारः अपि अपेक्षिताः. Not among them, they were gods, yes, who were called sadhyas, and they were also rishis who were endowed with the knowledge of the mantras. Kimartam iti chet, sarvadapi srishtikramaha katham uchyate, yugante antarhitan vedan setihasan maharishayah lebhire iti. Ataha rishayah yuga arambhe te mantran punaha praapnuvanti. अस्माकं सृष्टिप्रक्रिया अनादिकालात् प्रवर्तते, कदा आरब्धा वयं न जानीमः, परन्तु लयः भवति. पुनः सृष्टि आरम्भे किं भवति इति चेत्, ऋषयः प्रथमं मन्त्रान् प्राप्नुवन्ति. अग्रिमसृष्टौ कथं जीवः अथवा प्रपञ्चः विस्तृतः भवेत् इति मन्त्रान् प्राप्नुयुः. तेषां मन्त्रबलेन एते देवाः सृष्टिं कुर्वन्ति. अतः देवानां बलं कुतः? मन्त्रादेव. एतस्मिन्नपि अस्ति किल, सर्वत्र मन्त्रस्य मन्त्राणां प्रबलत्वं बहुत्र उच्यते. तव मन्त्रकृतो मन्त्रैर्दूरात् प्रशमितारिभिः प्रत्यादिश्यन्त इव मे दृष्टलक्ष्यभिदशरा. यदा दिलीपः वसिष्ठं मेलितुं गच्छति, हा भवतः राज्ये सर्वं कुशलं वा इत्यादि यदा पृच्छति, तदा दिलीपः वदति भवतः मन्त्रैः यदा शत्रवः दूरादेव मारिताः, दूरादेव मम देशं प्रति पादमेव न स्थापयन्ति, तदा मम शराणां प्रयोगः एव नास्ति, मम बाणानां प्रयोजनमेव नास्ति, तादृशं सौख्यमहम् अनुभवामि भवतः मन्त्रबलेन इति. अतः ऋषयः अपि देवाः अपि मिलित्वा एतत् सृष्टिकर्म कृतवन्तः. अतः मन्त्रस्य महत्त्वम् अत्र सूक्ष्मरूपेण सूचितमस्ति. ऋषिः इति पदप्रयोगेण मन्त्राणाम् आवश्यकता, मन्त्राणां यत् शक्तिः, या शक्तिः अस्ति तद्विषये निर्दिष्टम् इति. अतः एते सर्वेपि देवाः ऋषयः मानसिकं यागं कृत्वा पुरुषस्य आहुतिं कृतवन्तः इति. तस्मात् यज्ञात् सर्वहुतः संहृतं पृषदाज्यम् अशोकस्तागिश्चक्रे वायव्यान् आरण्यां ग्राम्याश्च ये. आहुतिः जाता, आहुतेः अनन्तरं यागस्य फलं प्राप्तव्यं, ततः नानाविधसृष्टिः भवेत्. किं किं जातम् इति अत्र उच्यते. तस्मात् यज्ञात् सर्वहुतः, सर्वहुतः तस्मात् यज्ञात्, सः यज्ञः किमिति उच्यते? सर्वहुतः नाम यस्मिन् यागे सर्वात्मकः पुरुषः एव हुतः, नाम आहुतः समर्पितः, सः यागः सर्वहुतः इत्युच्यते. नाम एतत् नाम दत्तमस्ति केवलं, नाम एवं सर्वहुतः इति कश्चन यागः अस्ति वा इति चेत् न, एतस्य विवरणं. यतोहि अत्र सर्वात्मकः पुरुषः एव तत्र हुतः अस्ति, एषः यागः सर्वहुतः. तस्मात् सर्वहुतः पञ्चमी, तस्मात् यज्ञात् किं जातम् इति चेत्, पृषदाज्यं संहृतं, सम्पादितं, किमपि सम्पन्नं, किमपि आगतं. किम् आगतं? पृषदाज्यं, दधिमिश्रितम् आज्यं. दधिमिश्रितम् आज्यमेव पृषदाज्यं, कर्ड् मिक्स्ड् वित् घी, तद् आज्यं तादृशं. नाम దధీచ ఆజ్యంచ ఇత్యేవమాది భోగ్య జాతం సర్వం సంపాదితం ఇత్యర్థ. యత్ భోగ్య జాతమస్తి తత్ సర్వం, ఆల్ దట్ ఇస్ నరిషింగ్. పూర్వం శరీరాణి ఇత్యుక్తం, శరీరాణం పోషణం కరణీయం, దధి ఆవశ్యకం, ఆజ్యం ఆవశ్యకం, తత్ సర్వం సిద్ధం. అనంతరం కిం జాతం, సంభృతం బృహదాజ్యం. అనంతరం కిం తత సిద్ధం ఇది చేత్, వాయవ్యాన్ ఆరణ్యాన్ పశూన్ చక్రే ఇది. తతః ఆరణ్యాః పశవః ఉత్పన్నాః, వైల్డ్ అనిమల్స్ ఏవ అరణ్యే నివసంతి, తే ఆరణ్యాః పశవః వాయవ్యాః ఉచ్యంతే, వాయుదేవతాకాః. నమ తేషాం ఆరణ్య పశూనాం కః అభిమానీ దేవత ఇది చేత్, వాయుః ఏవ. యతో హి వాయవ ఏవైనాన్ పరిదదాతి, తే సర్వేపి కేన వస్త్రేణ ఆవృతాః, తే ప్రాణినః ఇది చేత్, వాయునా ఏవ తే ఆవృతాః, నమ వాయునా ఏవ తే పరిరక్షితాః. నమ అత్రత్య అస్మాకం గృహస్య ప్రాణినః వా కుత్రచిత్ షెడ్ మధ్యే స్థాప్యంతే, ఏవం తేషాం పరిరక్షణం ఇత్యాది. ఫ్యాన్ భవతి ఏషు దినేషు గోశాలాయాం ఫ్యాన్ ఏసీ సర్వమపి అస్తి, తాదృశ పరిరక్షణం క్రియతే. పరంతు తే సర్వేపి వనే వాయునా ఏవ వేష్టితాః, తేనైవ రక్షితాః విహరంతి ఇతి కారణేన ఆరణ్యాః పశవః వాయవ్యాః ఇత్యుచ్యంతే. అతః తాదృశ బహు ఉత్తమ కల్పన, పశ్యంతు సమీచీన కల్పన. అతః ప్రథమం తాన్ పశూన్ చక్రే, ఆరణ్య పశవః సృష్టాః నమ హరిణాదయః ఇత్యర్థ, హరిణః సింహః ఇత్యాది. అనంతరం గ్రామ్యాశ్చ ఏ, గ్రామే ఏ నివసంతి ప్రాణినః, గవాశ్వాదయః తే అపి సృష్టాః ఇది. పరికల్పన సమీచీన ఇదం చింతనం ఆసీత్, విభక్తవంతః తదుపరి అపి గతవంతః. కథం తే ప్రాణినః వ్యవహరంతి, వాయునా పరిరక్షితాః తే జీవంతి ఇది అగ్రే అపి చింతనం జాతం తత్ర. అస్తు, అతః ఏతద్ బహు ప్రిమిటివ్ నాస్తి. మంత్రాః ఇది దో మంత్రాస్ ఆర్ ద ఎర్లియెస్ట్ అవైలబుల్ టెక్స్ట్, అదపి ఋగ్వేద ఈస్ కన్సిడర్డ్ ద ఓల్డెస్ట్ అవైలబుల్ డాక్యుమెంట్ ఆఫ్ ద వర్ల్డ్, మ్యాక్స్ ముల్లర్ ఏవ తథా ఉక్తవాన్ అస్తి. పరంతు దిస్ డస్ నాట్ ఇండికేట్ అ ప్రిమిటివ్ సివిలైజేషన్, ఇట్ ఈస్ నాట్ అ ఎక్స్ప్రెషన్ ఆఫ్ ప్రిమిటివ్ పీపుల్ ఆల్రెడీ ఇవాల్వ్డ్ ఆల్రెడీ. యథా భవతి ఉక్తవతి గ్రామ్య ఆరణ్యాది విభాగం అస్తి, అనంతరం తదుపరి ధ్యానాదికం కర్తవ్యం పరమాత్మనః విషయ ఇది చేత్ కథం. అతః అస్తు నవమహామంత్ర, తస్మాజ్ఞాత్సర్వహుత రచ సామాని జజ్ఞిరే ఛందాగుంసి జజ్ఞిరే తస్మాత్ యజుస్తస్మాదజాయత. సర్వేషాం వేదానాం సృష్టి. ఆశ్చర్యం కిమిది చేత్, ఆం క్రమం పశ్యన్నస్మి, శరీరాణి సృష్ట, జీవాత్మా సృష్ట, శరీరాణి సృష్టాని. ప్రథమం శరీరస్య భోజనం, దధి ఆజ్యం సర్వం సృష్టం, అనంతరమేవ వేద. అతః పోషణరహిత దేహేన వేదాదికమపి పఠితుం న శక్యతే ఇది. వివేకానంద యథా వదతి, కశ్చిత్ బుభుక్షితః చేత్ ప్రథమం తస్మిన్ భోజనం అనంతరం వేదాంతః ఇది. ఏవం స ఏవ క్రమః అత్ర, కారుణికః క్రమః, కరుణామయః ఏవ అస్తి. తస్మాత్ యజ్ఞాత్ సర్వహుతః, ఏషః యాగః సర్వహుతః ఇత్యుక్తం, తస్మాత్ యజ్ఞాత్ కిం కిం జాతం ఋచః సామాని జజ్ఞిరే, ఋగ్మంత్రాః సామమంత్రాః జజ్ఞిరే ఉత్పన్నాః. తస్మాత్ యజ్ఞాత్ ఛందాంసి గాయత్రీ ఇత్యాది ఛందాంసి, ఛందః యదస్తి తత్సర్వమపి జజ్ఞిరే. తస్మాత్ యజుః అపి అజాయత, ఋక్ యజుః సామ ఇత్యేవం నానా వేద ప్రకారాః, తత్ర తన్నియామక ఛందాంసి ఏదత్ సర్వమపి ఉత్పన్నం. వేద వేదాంగానామపి ఉత్పత్తి జాత ఇది. అనంతరం దశమః, తస్మాదశ్వా అజాయంత ఏకేచో భయాదతః గావో హజజ్ఞిరే తస్మాత్ అస్మాజ్జాత అజావయః ఇది. అగ్రే ఇతోపి కేషాంచన ప్రాణినాం ఉల్లేఖః, అత్యంతం నికటవర్తినాం అత్యంతం మనుష్యోపకారిణం. పూర్వత్ర ఉక్తం కిల గ్రామ్యాః పశవః ఆరణ్యాః ఇత్యుక్తం పునః సహ కథయతి ఇది లాజికల్ ప్రశ్న. అహమదే ఉక్తవాన్, లాజికల్ ప్రశ్న త్రణ చలతి. సహ ఋషి యద్యత్ అనుభవతి తత్ సహ ప్రకటితవాన్ అస్తి, అలా బుద్ధిపూర్వకమపి న ప్రకటితవాన్, తత్ मुखान् निःसृतमस्ति अनुभवः एव अत्र निःसृतः अतः अत्र क्रमः न अन्वेष्टव्यः अन्यत् एतत् ध्यानार्थम् इत्यपि उक्तं तस्मात् पूर्वोक्तात् यज्ञात् अश्वाः अजायन्त अश्वाः ज्ञायन्त एव अनन्तरम् अनन्तरं के ये के च उभयादतः अन्ये ये च अश्वव्यतिरिक्ताः गर्दभाः उभयादतः ऊर्ध्व अधोभागयोरुभयोः दन्तयुक्ताः सन्ति तेऽपि अजायन्त टू रोस् आफ् टीथ् ते एव उभयादतः येषाम् अस्ति उभयतः दन्तपङ्क्तिः येषां प्राणिनाम् अस्ति तादृशाः अन्ये ये ये प्राणिनः सन्ति ते सर्वे अपि उत्पन्नाः इति अनन्तरं तस्मात् यज्ञात् गावः जज्ञिरे गावोः जज्ञिरे तस्मात् यज्ञिरे अनन्तरं तस्मात् यज्ञात् अजावयः अजः नाम गोट् अविः नाम शीप् अजात् क्षीरादिकं लभ्यते अविः तस्मात् किं उल् इदम् ऊर्णा इदं लभ्यते एते मनुष्योपकारकाः प्राणिनः उत्पन्नाः यत्पुरुषं व्यदधुः तथा व्यकल्पयन् मुखं किमस्य कौ बाहू का ऊरूपादा उच्येते अस्तु इदानीं पुनः कश्चन प्रश्नः प्रश्नं कृत्वा पुनः सृष्टिक्रमस्य विवरणार्थम् एषः पुरुषः अस्ति किल अस्मादेव किल सर्वम् उत्पन्नम् इति उच्यते अस्य अस्य पुरुषस्य मुखं किं तस्य बाहू किं बाहुद्वयं किम् अस्य ऊरुद्वयं किं पादः कः इत्यादि सर्वं पृच्छ्यते अत्र केवलं प्रश्नः अस्ति यत् पुरुषं व्यदधुः यदा पुरुषं विराट् रूपं व्यदधुः सङ्कल्पेन उत्पादितवन्तः तदानीं कतिधा कति प्रकारैः व्यकल्पयन् विविधं कल्पितवन्तः तस्मात् पुरुषात् किं किं केन केन प्रकारेण उत्पादितवन्तः इति प्रश्नः एव मुखं किम् अस्य अस्य मुखं किं कौ बाहु बाहुद्वयं कौ बाहुद्वयं किम् अनन्तरं कौ ऊरु थैस् कौ ऊरु कौ पादा उच्येते कौ पादौ तस्य तस्य प्रत्येकम् उत्तरम् अग्रिममन्त्रे ब्राह्मणोऽस्य मुखमासीत् बाहुराजन्यः कृतः ऊरु तदस्य यद्वैश्यः तद्भ्यागं शूद्रो अजायत इति पूर्वोक्तानां प्रश्नानाम् उत्तराणि दर्शयति अस्मिन् मन्त्रे अस्य ब्राह्मणः मुखमासीत् अस्य पुरुषस्य ब्राह्मणः मुखमासीत् ब्राह्मण ब्राह्मणत्वविशिष्टः पुरुषः सः मुखं मुखरूपेण उत्पन्नः अनन्तरं राजन्यः क्षत्रियत्वयुक्तः पुरुषः सः बाहूकृतः बाहुत्वेन निष्पादितः अनन्तरं बाहुभ्याम् उत्पादितः इत्यर्थः तस्य पुरुषस्य मुखात् ब्राह्मणः उत्पादितः अनन्तरं तस्य बाहुभ्यः क्षत्रियः उत्पादितः तत् ब्राह्मणस्य मुखमासीत् बाहुराजन्यः कृतः ऊरु तत् अस्य यद्वैश्यः तत् तदानीम् अस्य प्रजापतेः यत् यौ ऊरु तद्रूपः वैश्यः सम्पन्नः ऊरुभ्यां वैश्यः उत्पन्नः अनन्तरं पद्भ्यां शूद्रः अजायत शूद्रत्वयुक्तः सः पुरुषः पद्भ्यां जातः इति अतः पूर्वत्र प्रश्नः अत्र उत्तरः अस्य इण्टर्प्रिटेशन् निमित्तम् अग्रे अहं न प्रवर्ते यतोहि बहु अस्ति अत्र बहु विचाराः अत्र उच्यन्ते मम मदीयाः अपि केचन विचाराः सन्ति मन्त्रः मन्त्रार्थः दृष्टः अस्माभिः त्रयोदश
काण्ट्रवर्शियल्
जनाः काण्ट्रवर्शियल् कृतवन्तः परन्तु अस्य विवरणं तु देयं वस्तुतः कः अर्थः इति व्याख्याकारः अत्र तावत् ब्राह्मणत्वजातिविशिष्टः इति वदति क्षत्रियत्वजातिविशिष्टः इत्यस्ति परन्तु तत्र जातिपदे मम तात्पर्यं नास्ति ब्राह्मणत्वविशिष्टः क्षत्रियत्वविशिष्टः इति उच्यते चेत् तत्र वैशिष्ट्यमस्ति ब्राह्मणत्वं नाम किं क्षत्रियत्वं नाम किं वैश्यत्वं नाम किं भगवद्गीतायामस्ति शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजं ब्राह्मणत्वविशिष्टः मुखं भवितुमर्हति यतोहि तस्य शमदमादि उत्तमगुणाः सन्ति क्षत्रियत्वविशिष्टः बाहु भवितुमर्हति यतोहि शौर्यं तेजः धृतिः दाक्ष्यं युद्धे च अपलायनं दानं ईश्वरभावः सर्वं क्षत्रियस्य स्वभावजम् कृषिगोरक्षवाणिज्यं वैश्यस्यापि स्वभावजम् एतत्त्रयं यः कर्तुं न शक्नोति एतादृशसामर्थ्यसम्पन्नः चेत् ब्राह्मणः भवति सः सामर्थ्ययुक्तः चेत् क्षत्रियः भवति कृषिगोरक्षादिषु क्षमः चेत् दक्षः चेत् सः वैश्यः भवति तत्समर्थः नास्ति चेत् सः परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावम् अन्येषां साहाय्यं करोति इति स्वस्वकर्मानुगुणं सामर्थ्यानुगुणम् एषः विभागः यः भगवद्गीतायाम् उक्तः तत्र बहु समीचीनमस्ति यदा तज्जातौ वयम् अन्तर्भावयामः क्लेशः भवति अतः ब्राह्मणत्वजातिविशिष्टः इति विवरणं तु भाष्ये अस्ति अहं तु ब्राह्मणत्वविशिष्टः इति अभिप्रैमि त्रयोदशः मन्त्रः चंद्रमा मनसो जातः चक्षो सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत बहु सरलमेव अस्ति यथा दध्यादि इन्द्रियाणि न द्रव्याणि दधि आद्यादि द्रव्याणि गवादयः पशवः ऋगादिवेदाः ब्राह्मणाद्याः मनुष्याः ब्राह्मणादयः मनुष्याः तस्मादुत्पन्नाः एवं चन्द्रादयः देवाः अपि तस्मादेव उत्पन्नाः इति अस्मिन् मन्त्रे दर्श्यते प्रजापतेः मनसः सकाशात् चन्द्रमाः जातः मनसः सकाशात् चन्द्रमा चक्षोः चक्षुषः सूर्यः उत्पन्नः अनन्तरं मुखात् अग्निश्च इन्द्रश्च उत्पन्नौ अस्य प्राणात् वायुः अजायत वायुः उत्पन्न एवं नानादेवता इन्द्रः चन्द्रः सूर्यः अग्निः इत्येते सर्वेपि देवाः नाना अवयवेभ्यः तस्मात् परमात्मनः उत्पन्नाः इति चतुर्दशः मन्त्रः तत्र नाभ्या आसीदन्तरिक्षं शीर्ष्णोद्यौ समवर्तत अभ्यां भूमिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् इति यथा चन्द्रादयः सृष्टाः प्रजापतेः मनःप्रभृतिभ्यः एवमेव अन्तरिक्षादि लोकाः अपि तस्मादेव लोकान् अकल्पयन् तदा लोका अन्तरिक्षम् इत्यादि लोकाः अपि देवाः तस्मात् पुरुषात् उत्पादितवन्तः इति नाभ्याः प्रजापतेः नाभेः अन्तरिक्षम् उत्पन्नम् अनन्तरं शीर्ष्णः द्यौः तस्य शिरसः द्युलोकः स्वर्गलोकः उत्पन्नः पद्भ्यां पादाभ्यां भूमिः उत्पन्ना श्रोत्रात् दिशः उत्पन्नाः इति नाना अवयवेभ्यः नानालोकाः लोके अपेक्षिताः एते एत अन्तरिक्षं द्युलोकः भूलोकः लोकः चेत् तत्र डैरेक्षन् आवश्यकं नो चेत् वयं सर्वे दिङ्मूढाः भवामः किल अतः दिशः एतत् सर्वम् उत्पन्नं कश्चन क्रमः अस्ति दृश्यते अत्र अनन्तरं पञ्चदशः उपान्त्यः मन्त्रः सप्तास्यासन् परिधयः त्रिस्सप्तसमिधः कृताः देवा यद्यज्ञन्तन्वानाः अबध्नन् पुरुषं पशुम् एवम् अत्र सप्तास्यासन् परिधयः परिधिः अपि कश्चन यज्ञप्रक्रियायां काचित् किञ्चित् अवयवं तत् परिधिविषये पश्यामः तत्र एषः यज्ञः अस्ति किल तस्मिन् का परिधिः एकनिमिषं परिधिशब्दस्य अर्थं विवृणोमि यत् परितः धीयते यत् परितः स्थाप्यते यथा इद्मः परितः स्थाप्यते एवमेव इद्मशब्दस्य फ्यूयल् यूस्ड् फार् सेक्रेड् फयर् इति उच्यते एवमेव परिधिः अपि तथैव परितः यज्ञरक्षणार्थं स्थाप्यते इति भावयामः अस्य सांकल्पिक यज्ञस्य सप्त परिधयः आसन् सप्त का केते सप्त परिधयः इति चेत् गायत्री आदि छन्दांसि एव गायत्री उष्णिक अनुष्टुप त्रिष्टुप बृहति पंक्ति जगति इत्येवं एते सप्त किं छन्दांसि छन्दांसि एव अस्य यज्ञस्य परिधि परिधित्वं प्राप्तवन्तः इति अनन्तरं त्रिसप्त समिधः कृताः त्रिसप्त त्री इन्टु सेवेन् 21 एकविंशति समिधः अस्य यागस्य सप्त परिधयः नाम सप्त छन्दांसि एव परिधयः नाम सप्तसु छन्दस्सु निबद्धाः नानामन्त्राः एव परिधयः अनन्तरं तत्र समिधः काः अत्र इति चेत् एकविंशतिसमिधः इत्युक्ते कः अर्थः अत्र द्वादशमासाः पञ्च ऋतवः त्रय इमे लोकाः असावादित्य एकविंशः सो 12 मन्त्स् 5 ऋतूस् अनन्तरं त्री वर्ल्ड्स् त्रय इमे लोकाः आदित्यः एकविंशः 20+1 21 इति इत्येतत् एतत् सर्वमेव तत्र समित्रूपेण अभवत् यत् यः पुरुषः अस्तु सप्तास्यासन् परिधयः त्रिसप्तसमिधः कृताः देवा यद्यज्ञं तन्वानाः यत् यः पुरुषः वैराजः अस्ति तं पुरुषं देवाः प्रजापतिप्राणेन्द्रियरूपाः यज्ञं तन्वानाः मानसं यज्ञं तन्वानाः कुर्वाणाः पशुम् अबध्नन् विराट् पुरुषमेव पशुत्वेन भावितवन्तः पूर्वोक्तविषयः एव अतः यस्मिन् यज्ञे सप्तपरिधयः यस्मिन् यज्ञे एकविंशतिसमिधः एवं परिकल्पिताः देवैः मानसिके यज्ञे तस्मिन् यज्ञे सः पुरुषः एव पशुरूपेण बद्धः इति पुनः पुनरावर्तनं तत् विचारस्य पूर्वोक्तमेव अन्ते एवं जातं सृष्टिप्रक्रिया एवं सम्पन्ना तेन किं यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकं महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः एतादृशयज्ञस्य विषये यः ध्यानं करोति यः मनसि भावनां करोति सः किं प्राप्नोति तद्विषये अत्र उच्यते देवाः यज्ञेन यज्ञम् अयजन्त देवाः प्रजापति प्राणरूपाः यज्ञेन यथोक्तेन मानसेन सङ्कल्पेन यज्ञं यथोक्तयज्ञस्वरूपं प्रजापतिं पूजितवन्तः पूर्वसाध्याः ऋषयः इत्युक्तं किल ते देवाः यज्ञेन एतादृशेन साङ्कल्पिकेन यज्ञेन यज्ञस्वरूपमेव परमात्मानं पूजितवन्तः इति श्रेष्ठं परमात्मानम् अयजन्त पूजितवन्तः अस्तु अनन्तरं किम् अभवत् तानि धर्माणि प्रथमानि आसन् तानि पूर्वोक्तानि यत् पूर्वोक्तानि धर्माणि जगद्रूपविकाराणां धारकाणि पूर्वोक्तप्रकारेण नानारूपेण सृष्टिः अनेन क्रमेण जाता इत्युक्तं किल तानि एव धर्माणि प्रथमानि नाम मुख्यानि मुख्यरूपेण सृष्टिः एवं जाता इति तानि धर्माणि प्रथमान्यासन् एतावता सृष्टिप्रतिपादकसूक्तभागार्थः सङ्गृहीतः एवमेव आरम्भक तानि धर्माणि प्रथमान्यासन् इत्यस्य किं तात्पर्यम् अनेन क्रमेण सृष्टिः जाता इति तात्पर्यम् इदानीं द्वितीयपादः अस्ति किल ते हनाकं महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः इत्यस्ति तेन किं सूच्यते अथ उपासन तत्फल अनुवादकः भागार्थः सङ्गृह्यते अत्र उपासनस्य फलं किम् एवम् उपासनं करणीयम् एवं सृष्टिः जाता इति काचित् भावना तां भावनां यः करोति तस्य किं फलं यत्र यस्मिन् विराट् प्राप्तिरूपे नाके पूर्वे साध्याः पुरातनाः विराड् रूप विराड् रूपास्ति साधकाः देवाः सन्ति तत् नाकं ತೇ ಮಹಿಮಾನಃ ತದುಪಾಸಕಾಃ ಮಹಾತ್ಮಾನಃ ಸಚಂತೆ ಸಮವಯಂತಿ ಪ್ರಾಪ್ನುವಂತಿ. ತೇಹ ನಾಕಂ ಮಹಿಮಾನ ಸಚಂತೆ, ನಾಕಂ ಸಚಂತೆ, ನಾಕಂ ನಾಮ ಸ್ವರ್ಗಃ, ಸ್ವರ್ಗಲೋಕಂ ಪ್ರಾಪ್ನುವಂತಿ. ತೇ ಜನಾಃ ತೇ ಮಹಿಮಾನಃ ತೇ ಮಹಾತ್ಮಾನಃ, ಕೇ ಮಹಾತ್ಮಾನಃ ಉಪಾಸಕಃ ಇತ್ಯರ್ಥಃ. ಯೇ ಉಪಾಸಕಾಃ ಮಹಾತ್ಮಾನಃ ಮಹಿಮಾನಃ ತೇ ಕುತ್ರ ಗಚ್ಚಂತಿ, ತೇ ನಾಕಂ ಗಚ್ಚಂತಿ. ಕಃ ಸಹ ನಾಕಃ ಕಃ ಸಹ ನಾಕಲೋಕಃ ಯತ್ರ ಪೂರ್ವೇ ಸಾಧ್ಯಾಃ ಸಂತಿ ದೇವಾಃ. ಯತ್ರ ಯತೇ ಸೃಷ್ಟಿಕರ್ತಾರಃ ಸಾಧ್ಯಾಃ ದೇವಾಃ ಸಂತಿ ತಮೇವ ತೇ ಸಾಲೋಕ್ಯಂ ಪ್ರಾಪ್ನುವಂತಿ ಇತ್ಯರ್ಥಃ. ತೈಃ ಸಹ ದೇವೈಃ ಏತೇ ಸಾಲೋಕ್ಯಂ ಪ್ರಾಪ್ನುವಂತಿ ಇತ್ಯರ್ಥಃ. ತನ್ನಾಮ ಕಿಂ ಏತೇ ಸಾಧ್ಯಾಃ ಋಷಯಃ ಸರ್ವೇ ಕುತ್ರ ನಿವಸಂತಿ ಇತಿ ಚೇತ್ ಸತ್ಯಲೋಕೇ ನಿವಸಂತಿ. ಭೂಃ ಭುವಃ ಸುವಃ ಮಹಃ ಜನಃ ತಪಃ ಸತ್ಯಂ ಏತೇ ಕ್ರಮಮುಕ್ತಿಂ ಕ್ರಮಮುಕ್ತಿಭಾಜಃ ಭವಂತಿ. ಕ್ರಮೇಣ ಏತಾನ್ ಸರ್ವಾನ್ ಲೋಕಾನ್ ಅತೀತ್ಯ ಸತ್ಯಲೋಕೇ ತೇ ನಿವಸಂತಿ. ಅನಂತರಂ ಕಿಂ ಜಾಯತೆ ಇತಿ ಚೇತ್ ಯದಾ ಸೃಷ್ಟಿಕಾಲಃ ಸಮಾಪ್ತಃ ಭವತಿ. ನಮ್ಮ ಸತ್ಯಲೋಕಸ್ಯ ವಿವರಣಾದಿಕಂ ಯೋಗಸೂತ್ರೇ ಅಸ್ತಿ. ಭುವನ ಜ್ಞಾನಂ ಸೂರ್ಯ ಸಂಯಮಾತ್ ಇತಿ ತೃತೀಯ ಪಾದಸ್ಯ ಭುವನ ಜ್ಞಾನಂ ಇತ್ಯತ್ರ. ಭುವನಂ ನಾಮ ಕಿಂ, ಭೂಲೋಕೆ ಕಿಂ ಭವತಿ, ಭುವರ್ಲೋಕೆ ಕಿಂ ಭವತಿ, ಸ್ವರ್ಲೋಕೆ ಕಿಂ ಭವತಿ, ಸತ್ಯಲೋಕೆ ಕತಿ ವಿಭಾಗಾಃ ಸಂತಿ, ತತ್ರ ಜನಾಃ ಕಿಂ ಕಿಂ ಕುರ್ವಂತಿ ತತ್ಸರ್ವಂ ಅಸ್ತಿ. ಅತಃ ಕೇಚನ ತತ್ರ ಗೃಹಯುಕ್ತಾಃ ಕೇಚನ ಗೃಹರಹಿತಾಃ ಕೇಚನ ಭೂಮೌ ನ ಭವಂತಿ ಕೇಚನ ಉಪರಿ ಏವ ಡಯಂತೆ ಇತ್ಯೇವ ನಾನಾರೂಪ ಸೂಕ್ಷ್ಮ ಸಾಧಕಾಃ ತತ್ರ ಭವಂತಿ ಯೇಷಾಂ ಬಾಧಾ ನ ಭವತಿ. ಇದಾನಿಂ ಸತ್ ರಜಸ್ತಮೋ ಗುಣಾನಾಂ ಬಾಧಾಂ ವಿನ ಸತ್ಯಲೋಕೇ ತೇ ಸತ್ವಭೂಯಿಷ್ಠಾಃ ಕೇವಲಂ ತತ್ರ ಧ್ಯಾನಪರಾಃ ಭವಿತುಂ ಅರ್ಹಂತಿ. ತಾದೃಶ ಅವಸ್ಥಾಂ ಏತೇ ಜನಾಃ ಸಾಲೋಕ್ಯರೂಪ ಅವಸ್ಥಾಂ ದೇವೈಸ್ಸಹ ಪ್ರಾಪ್ತುಮರ್ಹಂತಿ. ತದೇವ ಅಸ್ಯ ಪುರುಷಸೂಕ್ತಸ್ಯ ಪಠನಸ್ಯ ಉಪಾಸನಸ್ಯ ಚ ಫಲಂ ಇತಿ ಶಂ. ಓಂ ಸಹನಾವವತು ಸಹನೋ ಭುನಕ್ತು ಸಹ ವೀರ್ಯಂಕರವಾವಹೈ ತೇಜಸ್ವಿನಾವಧೀತಮಸ್ತು ಮಾ ವಿದ್ವಿಷಾವಹೈ. ಓಂ ಶಾಂತಿ ಶಾಂತಿ ಶಾಂತಿಃ.